इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिनशर्मा। आदौ मुख्य वार्ताः। कृषिमन्त्री शिवराज सिंह चौहानः अद्य नवदिल्ल्यां भारतस्य द्वयोः जीनोम सम्पादितयोः तण्डुलप्रकारयोः ICAR इत्यनेन विमोचनं कृतवान्। केन्द्रीय गृहमन्त्री अमितशाहेन सबलं प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनम् अभ्यासश्च करणीयः, यतोहि भारतस्य सर्वमपि ज्ञानं संस्कृतभाषायामेव निहितं वर्तते। रक्षानुसन्धान विकास संघटनेन DRDO इत्यनेन मध्यप्रदेशस्य श्योपुर परीक्षणस्थलात् समतापमण्डलीय वायुयान पद्धत्याः प्रथमोड्डयन परीक्षणं साफल्यपूर्वकं समाचरितम्। भारत निर्वाचन आयोग शीघ्रमेव एकीकृत प्राविधिक मञ्चत्वेन ECINET इत्येतस्य चलदूरभाषीय तन्त्रांशस्य अनावरणं करिष्यति। प्रथमस्य विश्व दृश्य श्रव्य मनोरंजन शिखर सम्मेलनस्य वेव्स इत्यस्य अद्य मुंबय्यां समापनं भविष्यति। अपि च 25-2000 खेलो इंडिया युवक क्रीडा बिहारस्य पटनायां पाटलिपुत्र खेल परिसरे भव्य समारोह पूर्वकं अद्य समारब्धा। अथ वार्ताः विशदीकृत्य। कृषिमन्त्री शिवराज सिंह चौहानः अद्य नवदिल्ल्यां भारतस्य द्वयोः जीनोम सम्पादितयोः तण्डुलप्रकारयोः ICAR इत्यनेन विमोचनं कृतवान्। आयोजनं सम्बोधयन् मन्त्री अवदत् यत् अद्य भारतस्य कृते ऐतिहासिकः दिवसः अस्ति। एतयोः प्रकारयोः उत्पादनव्ययः न्यूनी भविष्यति, देशे तण्डुलानां उत्पादनञ्च वर्धिष्यते इति सः अवदत्।
उत्पादन बढ़ेगा, किसान को फायदा है, केवल किसान को फायदा नहीं है, जनता को भी फायदा है। बढ़ती हुई आबादी को अगर पूरी तरह से पोषण सुरक्षा देनी है, खाद्य सुरक्षा देनी है, तो उत्पादन बढ़ाना पड़ेगा। उत्पादन बढ़ेगा तो अपने आप लागत भी घटेगी, पानी भी बचेगा, मीथेन गैसों का उत्सर्जन कम होगा तो पर्यावरण भी बचेगा।
अंगोलायाः राष्ट्रपतिः जोआओ मैनुअल गोंकाल्वेस लॉरेंको इत्यमुना प्रोक्तं यत् भारत अंगोला देशौ द्विपक्षीय सम्बन्धानां संवर्धनार्थं प्रतिबद्धौ स्तः। अद्य नवदिल्ल्यां भारत अंगोला व्यापार मञ्चोपरि तेन प्रोक्तं यत् भारतस्य सामान्यौषधीषु विशेषज्ञता वर्तते। उपस्थित जनसमूहं सम्बोधयन् केन्द्रीय विदेश राज्यमन्त्री कीर्तिवर्धन सिंहः प्रोक्तवान् यत् भारत अंगोला देशयोः द्विपक्षीय सम्बन्धः जीवन्तोर्जा क्षेत्रे आधारितः वर्तते।
Our bilateral relations are underpinned by a vibrant energy partnership, and bilateral trade between our two countries has been growing and reached $4.2 billion in the 2023-24 period. Angola is now the 123rd member of the International Solar Alliance, and the Government of India has approved a line of credit of $200 million for further strengthening our defense and security cooperation.
केन्द्रीय गृहमन्त्री अमितशाहेन अद्य प्रोक्तं यत् जनैः संस्कृतभाषाध्ययनम् अभ्यासश्च करणीयः, यतोहि भारतस्य सर्वमपि ज्ञानं संस्कृतभाषायामेव निहितं वर्तते। सः अवदत् यत् संस्कृतभाषा जगतः समाह्वानानां समाधानाय मार्गदर्शनं कर्तुं शक्नोति। गृहमन्त्री नवदिल्ल्यां संस्कृतभारत्या आयोजितानां 8,500 संस्कृतसम्भाषणशिबिराणां समापनकार्यक्रमं सम्बोधयन् एवम् उक्तवान्। संस्कृतभाषायाः महत्त्वं बोधयन् श्रीशाहः अवदत् यत् संस्कृतभाषा अधिकांशभाषाणां जननी अस्ति। सः अवदत् यत् देशे संस्कृतस्य प्रचारार्थं सर्वकारः कार्यं कुर्वन् अस्ति।
संस्कृत एक प्रकार से भारत की आस्था है, हमारी परंपरा है, ये सत्य है, नित्य है, सनातन। इसके साथ साथ ज्ञान और ज्ञान की ज्योति दोनों एक प्रकार से संस्कृत में ही समाहित है।
अस्माकं संवाददात्रानुसारं संस्कृतभारत्या अप्रैल मासस्य 23 दिनांकादारभ्य मई मासस्य 3 दिनांकपर्यन्तं राष्ट्रिय राजधान्याम् 8,500 संस्कृत सम्भाषण शिबिराणाम् आयोजनं विहितम्। एतेषु शिबिरेषु 25,000 जनाः भागं गृहीत्वा संस्कृतभाषाम् अधीतवन्तः। अस्मिन् कार्यक्रमे दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता, दिल्ली भाजपा अध्यक्षः वीरेन्द्र सचदेवा, दिल्ली विश्वविद्यालयस्य च कुलपतिः प्रोफेसर योगेश सिंहः, संस्कृत भारत्याः गणमान्य जनाः च उपस्थिताः आसन्। रक्षानुसंधान विकास संगठनेन डीआरडीओ इत्यनेन ह्यः मध्यप्रदेशस्य श्योपुर परीक्षणस्थलात् समतापमण्डलीय वायुयान पद्धत्याः प्रथमोड्डयन परीक्षणं साफल्यपूर्वकं समाचरितम्। उत्तरप्रदेशस्य आगरायाम् एरियल डिलीवरी अनुसंधान विकास प्रतिष्ठानेन निर्मितः अयं वायुपोतः 17 किलोमीटरमितं यावदौन्नत्ये इंस्ट्रुमेंटल पेडोल इत्यस्य साहाय्येन प्रक्षिप्तः। रक्षामन्त्री राजनाथ सिंहेन सफलोड्डयनार्थं डीआरडीओ संगठनाय शुभकामनाः प्रकल्पिताः। तेनोदीरितं यत् एषा प्रणाली भारतस्य भूम्यवलोकनस्य अन्वीक्षण क्षमतायाश्च अद्वितीय रूपेण दृढीकरणं करिष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्र मोदी अद्य वायुसेना प्रमुखेन एयर चीफ मार्शल एपी सिंहेन सह तस्य आवासे मिलितवान्। पहलगामे आतंक्याक्रमणात् परं भारत पाकिस्तानयोः सीम्नि अतिक्रममुद्दिश्य मेलनमिदं सुसम्पन्नम्। पहलगाम आतंक्याक्रमणानन्तरं एकस्मिन् घटनाक्रमे पाकिस्तान देशाय गुप्तसूचना प्रदानार्थं अमृतसरे पंजाब आरक्षिदलेन द्वौ आरोपिणौ निगृहीतौ। तत्र पलक शेर मसीहः अपरः सूरज मसीहः इत्येतौ आरोपिणौ वर्तेते। एतयोः उपरि आरोपः वर्तते यत् तौ अमृतसरे स्थितानां विमानपत्तनानां सैन्यप्रतिष्ठानानाञ्च संवेदनशील सूचनां गुप्ततया प्रसारितवन्तौ। वरिष्ठारक्षिसूत्रानुसारं प्रारम्भिकान्वेषणे तयोः सम्बन्धः पाकिस्तान देशस्य गुप्तचरैः सह सम्प्राप्तः। अधिकारिणाम् अभिमतं वर्तते यत् अन्वेषणस्य अनवरतत्वात् इतोऽपि गूढरहस्यानाम् उद्घाटनं भवितुमर्हति। निर्वाचनायोगः शीघ्रमेव एकीकृत प्राविधिक मञ्चत्वेन ईसीआई एनईटी इत्येतस्य चलदूरभाषीयतन्त्रांशस्य अनावरणं करिष्यति। अनेन निर्वाचन सम्बन्ध गतिविधयः हितधारकाः एकस्मिन्नेव स्थाने प्राप्तुमर्हन्ति। आयोगेन एकस्मिन् वक्तव्ये कथितं यत् वन स्टॉप प्लेटफॉर्म ईसीआई एनईटी इत्येतस्य निर्वाचनायोगस्य 40 अधिकानां चलदूरभाषीयतन्त्रांशानां एकीकरणं पुनर्संरचनञ्च करिष्यति। एतत् उपयोगकर्तानुकूलं प्राविधिक फलकं मतदातृभिः सह निर्वाचनाधिकारिभ्यः राजनैतिकदलेभ्यः अन्येभ्यः हितधारकेभ्यश्च निर्मीयते। ईसीआई एनईटी इत्यस्मिन् उपयोगकर्तारः आकर्षकं सरलञ्चानुभवं प्राप्स्यन्ति। अस्योद्देश्यं वर्तते यत् उपयोगकर्तृणां विविधानुप्रयोगाणां संग्रहणभारं दूरीभवेदिति। प्रथमस्य विश्व दृश्य श्रव्य मनोरंजन शिखर सम्मेलनस्य वेव्स इत्यस्य अद्य समापनं भविष्यति। चतुर्दिवसीयस्य आयोजनस्य अन्तिमदिने चलचित्र निर्माणस्य कार्यशाला सांस्कृतिक कार्यक्रमाश्च मुख्याकर्षणं भविष्यन्ति। गुरुवासरे आरब्धस्यास्य आयोजनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्र मोदिना विहितम्। पद्मश्री सम्मानेन सम्मानितस्य प्रसिद्ध योगसाधकस्य स्वामी शिवानन्द बाबा वर्यस्य ह्यः वाराणस्यां निधनम् अभवत्। सः 28 वर्षीयः आसीत्। प्रधानमन्त्री नरेन्द्र मोदी, मुख्यमन्त्री योगी आदित्यनाथः च शिवानन्द बाबा वर्यस्य देहावसाने शोकं प्रकटितवन्तौ। उत्तराखण्डस्य चमोली मण्डले अद्य प्रातः बद्रीनाथ धाम्नः पवित्रद्वारं पारम्परिकरीत्या समुद्घाटितम्। अनेन सहैव उत्तराखण्डस्य चत्वारि अपि तीर्थस्थलानि केदारनाथ, गंगोत्री, यमुनोत्री, बद्रीनाथादयः तीर्थयात्रिणां कृते दर्शनार्थम् उद्घाटितानि सन्ति। आईपीएल इत्येतस्यां क्रिकेट स्पर्धा मालिकायाम् अद्य कोलकाता नाइट राइडर्स राजस्थान रॉयल्स दलयोः मध्ये कोलकाता नगरस्य ईडेन गार्डेन्स क्रीडांगणे द्वन्द्वं सम्प्रति प्रचलति। अद्य अन्यस्मिन् द्वन्द्वे पंजाब किंग्स दलं लखनऊ सुपर जायंट्स दलं धर्मशालायां सायं 7:30 सम्मुखीकरिष्यति। पञ्चविंशत्यधिकद्विसहस्रतमाब्दीया खेलो इंडिया युवक क्रीडा स्पर्धा मालिका बिहारे पटनायां पाटलिपुत्र खेल परिसरे भव्य समारोह पूर्वकं अद्य समारब्धा। इति वार्ताः।